हेलो।
हेलो।
हाँ भाई, तो कौन रहता
हाँ तो कर रहे तो कुछ
है?
बिरुल होने चला
हाँ
बांग देखे तेरा बांग सुखा खेल लो चुनौत का
हाँ
दमो सुल्तान में जाओ बा हिग्गा बांग सु या खेल लो सुल्तान या फेडरल बांग सुल्तान से बोलो बगैर जिसका काम तो आज बाइक मंगे सुम दमो जाच बा खेल लो चिन्ना बा फेडरल मंगे सियात सत्ता सुल्तान खा ले दमो बगिल या फेडरल सायोन या खेल लो बोलो उसका मुदारी गमंग सु
अच्छा।
दाबी साले आउना दिसावा के लिए आ रहे ले चु दिरेडा मिंडे इंडियन नो नसुस टाइयुत लमिसाले आसपास आमे खालो चु इंडियत मावाकर इच्छिलालू ये मंगे फेडरल मंगे साउन दे
እኮ እሱን ይኸውልህ፣ እርሶ እሱን አጀንዳ ይሰጡና በአጀንዳው አሁን ለምሳሌ እንዴት ነው የሚሆነውን እኔ አሁን መልስ ልመልስልህ አልችልም። እንዴት ነው ለምንድን ነው የሚለውን ነገር አጀንዳ ያስይዙና በአጀንዳዎት መሰረት የእርሶ ጥያቄ የሆነውን ነገር በአጀንዳዎት ገብተው ለምክክር ኮሚሽኑ ያስገባሉ እንጂ አሁን እኔ እዚህ ጋር ቁጭ ብዬ ይሄ ነው ልል ሳይሆን አጀንዳ ስጡ ነው ምለው። እንደውም እርሶ በጣም ትናንትናም ስለደወሉ ዛሬም ስለደወሉ አንዳንድ ነገሮችን ላስረዳዎት ሞከርኩኝ እንጂ እንጂ እኔ አጀንዳ ስጡ ብቻ ከማለት ውጪ ሌላ ነገር የምለው ነገር የለም።
አጀንዳ በቴሌፎን ነው የሚሰጠው፣ በኢሜይል ምንድን ነው የሚሰጠው?
ኢሜል አለ፣ በኢሜይል በጽሁፍ በፖስት አድርገው እርስዎ ሩቅ አይደለም መጥተው ማንኛውም ሰዓት ላይ መጥተው እዚሁ ሽሮ ሜዳ ሀገራዊ ምክክር ኮሚሽን መስሪያ ቤቱ መስጠት ይችላሉ። በዛው ደግሞ አንዳንድ ነገሮችን እንትኑ ይልቅ ሰፋ ያለ ነገር ሊሆን ይችላል። ካለበዛ ደግሞ ያደረለ ድረገጻችን አይተው አለ።
ይቻላል።
በዛ እንትን ማለት
ስለዚህ
ብዙ ነው
ጥያቄ
የእርስዎን የሁሉም አካባቢ ጥያቄ ስለሆነ ይዘው እንትን ያሉት በዛ መሰረት ብዬ ነው። ስለዚህ ይሄን ሀሳቦትን አሁን በዚች በእኔ በዚች በአንድ 30 ሰከንድ ወይም 40 ሰከንድ ሊገልጹት አይችሉም። ስለዚህ በጽሁፍ አድርገው ይሄ ቢሆን ማለት ሰፊ እንትን ስላሉት በዛ አድርገው ማቅረብ ይችላሉ።
እሺ።
እሺ፣ ስለደወሉ እናመሰግናለን። መልካም ቀን ይሆንልዎት።
እሺ፣ ቴንክ ዩ